ప్రజాపతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణా బ్రహ్మణస్పత ఆన శృణ్వన్ నోతిభిః సేదసాదనం ప్రణో దేవీ సరస్వతీ వాజినీవతీ ధీనామ విత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం. ఓం నమో భగవతే రుద్రాయ. ఓం నమస్తే రుద్రమన్యవ ఉతోదైషవే నమః. నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః. శివతమా శివం బభూవతే ధనుః శివా శరవ్యాయాతవతయానోరుద్రమృణయా యాతే రుద్ర శివా తనోరఘోరా పాపకాశినీ తయానస్తనువాశంతమయా గిరిశంతాభిచాకశీ యామిషుం గిరిశం తహస్తే వివశ్యస్తవే శివాం గిరిత్రతాం కురుమాహి గుంసి పురుషం జగత్. శివేన వచసా త్వా గిరిసాచ్ఛా వదామసి యతా నః సర్వమిజ్జగత యక్ష్మగుం సుమనా అసత్. అధ్యవోచదది వక్తా ప్రథమో దైవ్యోభిషక్ అహీగశ్చ సర్వాన్ జంబయన్ సర్వా శ్రయాతు ధాన్యః అసౌ యస్తామ్రో అరుణ ఉత బభ్రుః సుమంగళః యే చేమాగుం రుద్రా అవితో దిక్షశ్రుత సహస్రశో వైశాగుం హేడయీమహే అసవ్యో వసర్పతి నీలగ్రీవో విలోహితః ఉదైనం గోపా అదృశన్నదృశన్నదహార్యః ఉదైనం విశ్వా భూతాని సదృష్టో మృడయాతినః. నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీడుషే అథో యే అస్య సత్వానోహం తేభ్యో కరణమః ప్రముంచ ధన్వనస్త్వముభయోరాత్మియోర్జ్యాం యాశ్చ తే హస్తైషవ పరాత భగవో వప అవతత్యధనుస్త్వగుం సహస్రాక్షశతేషు దే నిషీర్య శల్యానాముఖా శివో నః సుమనాభవ విజ్యం ధనుః కపర్దినో విశల్యో బాణవాగుం ఉత అనేషన్నస్యేషవ ఆవురస్య నిషంగతిః యాతే హేతిర్మీడుష్టమహస్తే బభూవతే ధనుః తయాస్మాన్ విశ్వతస్త్వమయక్ష్మయా పరిభుజ. నమస్తే అస్త్వాయుధాయానాతతాయ దృష్టవే ఉపాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్ మృణక్తు విశ్వతః అతో యైషుదిస్తవారి అస్మన్నిదేహితం. నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. नमो हिरण्यबाहवे से नान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्मिन् जराय त्विषीमते पतीनां पतये नमो नमो बभ्लुषाय विव्याधिनेनानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय तथाविने क्षेत्राणां पतये नमो नमः सोताय हन्त्याय वनानां पतये नमो नमो रोहिताय स्तपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृताय औषधीनां पतये नमो नम उच्चैर्दोषाय क्रन्दयते पत्थीनां पतये नमो नम कृष्णवीताय धावते सत्त्वनां पतये नमः नमः सहमानाय निव्याधिनाप्याधिनीनां पतये नमो नम ककुवाय निषङ्गिणे स्तेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः सृकाविभ्यो जिगागुं सद्व्योमुष्णतां पतये नमो नमो सिमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छन्व्यो विसृजभ्यश्च वो नमो नमोऽस्यभ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नम स्वमद्भ्यो जाग्रभ्यश्च वो नमो नम तिष्ठभ्यो नावभ्यश्च वो नमो नम सवाभ्यः सवापदिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपदिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाव्यस्त्रिगुं हतेभ्यश्च वो नमो नमो ग्रस्वेभ्यो ग्रस्वपतेभ्यश्च वो नमो नमो भ्रातेभ्यो व्रातपतेभ्यश्च वो नमो नमो गणेभ्यो गणपतेभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतिभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रथपतेभ्यश्च वो नमो नम सेनाभ्यस्सेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः तक्षन्व्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनेभ्यश्च वो नमो नम स्वभ्यश्वपतेभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः सर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कवर्णिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिविविष्टाय च नमो मेरुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाचिराय च नमः शीघ्रियाय च शेभ्याय च नमः ऊर्म्याय च वस्वन्याय च नमः श्रोतस्याय च नेभ्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः ऊर्वजाय च परजाय च नमो मध्यमाय च अपगल्भाय च नमो जगन्याय च बुद्धियाय च नमः सोऽज्ञाय च व्रतसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरताय च नमः शूराय चावविद्धते च नमो वर्मिणे च वरोधिने च नमो विल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो विष्णवे च प्रमुषाय च नमो नूताय च प्रयुताय च नमो निषङ्गिणे चेशुधिमते च नमस्ते क्षेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च मत्याय च नमः काट्याय च नीप्याय च नमः चोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वासव्याय च वास्तुमाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः स्तीर्त्याय च कोल्याय च नमः भार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आधार्याय च लात्याय च नमः षष्ट्याय च वेण्याय च नमः त्रिगत्याय च प्रवाह्याय च नम इरिण्याय च प्रवत्याय च नमः केगुंशिलाय च क्षयणाय च नमः कपर्णिने च बुलस्तये च नमो गोष्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुं सव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्याय च वर्णशद्याय च नमो भगुरवाणाय च विघ्नते च नमः आखिदते च प्रखिदते च नमो वक्किलिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षेदकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसत्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मावेर्मारोमो येषाम् किञ्च नाम मत् याते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तयानो मृडजीवसे इमागुम् रुद्राय तवसे कवन्दिने क्षयद्वेराय प्रवरामहे मतिम् यथा न शमसद्विपदे चतुष्पदे विश्वम् पुष्टम् रामे अस्मिन्ननातुरम् मृणानो रुद्रोतनो मयस्कृति क्षयद्वेराय नमसा विदेवते यच्चम् च योश्च मनुराय जे पिता तदश्याम तव रुद्रः प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रवामितो वदिर्हविष्मन्तो नमसा विदेमते आरात्ते गोग्न उत पोरुषन्ने क्षयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अदित देव ब्रूयता च नः शर्म यच्छ द्विवर्हा स्तुहि श्रुतम् गर्त सदयुवानम् मृगन्न भीममुपहत्वमुग्रम् नृणाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्त्वमरित्वेषस्य दुर्मतिरगायो अवस्थिरा भगवद्भ्यस्तनुष्वमीडुस्तोकायतनयाय मृणया मेणुष्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधन्निदाय कृत्तिम् वसानाचर पिनाकम् बिभ्रदागहे विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगव पराचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयोजने वदन्वानि तन्मसि अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अदि नीलग्रीवाश्रितिकण्ठाः सर्वा अधः क्षमाचराः नीलग्रीवाश्रितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवाविलोहिताः ये भूतानामधिपतयो विशिखासक्कवर्णिनः ये अन्येषु विविद्यन्ति मात्रेषु विवतो जनान् ये पताम् पतिरक्षय ऐलवृदायम् युधः ये तीर्थानि प्रचलन्ति सृकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च निशो रुद्रावितस्तिरे तेषागुंसहस्रयो जने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये निवियेषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दशदक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् द्विष्मो यश्च नो द्वेष्टितम् वोचम् भेददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधेषु यो रुद्रो विश्व भुवनाविवेश तस्मै रुद्राय नमो अस्तु येते सहस्रमयुतम् पाश मृत्यो मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः नेनान्येनाभ्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमस्तु यस्विश्वसुदन्वायो विश्वस्य क्षयति मे सजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमोभिर्देवमसुरम् ध्रुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्ववेशजो यगु शिवाभिमर्शनः ॐ शान्ति 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 ॐ शं च मे मयश्च मे प्रियं च मे कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे गगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्य मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे शीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणा त्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमेणागुम् राजा अप्येषागुस्तपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खण्फन्मृसे ॐ शान्ति शान्ति शान्तिः ॐ सहनावतु सह नौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः अथ पुरुषो ह वै नारायणो कामयत प्रजा सृजेयेति नारायणात् प्राणो जायते मनः सर्वेन्द्रियाणि च खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी नारायणात् ब्रह्मा जायते नारायणाद्रुद्रो जायते नारायणादिन्द्रो जायते नारायणात् प्रजापतयः प्रजायन्ते नारायणाद्वादशादित्या रुद्रावसवः सर्वाणि च छन्दागुंसे नारायणादेव समुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते ॐ अथ नित्यो नारायणः ब्रह्मा नारायणः शिवस्य नारायणः शक्रस्य नारायणः द्यावा पृथिव्यौ च नारायणः कालस्य नारायणः दिशस्य नारायणः ऊर्ध्वस्य नारायणः अधस्य नारायणः अन्तर्बहिश्च नारायणः नारायण एवेदगुं सर्वम् यद्भूतं यच्च भव्यम् निष्कलो निरञ्जनो निर्विकल्पो निराख्यात शुद्धो देव एको नारायणः न द्वितीयोऽस्ति कश्चित् य एवं वेद स विष्णुरेव भवति स विष्णुरेव भवति ओमित्यग्रे व्याहरेत् नम इति पश्चात् नारायणायेत्युपरिष्टात् ओमित्येकाक्षरम् नम इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि एतद्वै नारायणस्याष्टाक्षरम् पदम् यो ह वै नारायणस्याष्टाक्षरम् पदमध्येति अनपब्रुवः सर्वमायुरेति विन्दते प्राजापत्यगुम् रायस्पोषम् गौपत्यम् ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति य एवम् वेद प्रत्यगानन्दम् ब्रह्मपुरुषम् प्रणवस्वरूपम् अकार उकारमकार इति तानेकधा समभरत् तदेतदोमिति यमुक्त्वा मुच्यते योगी जन्म संसार बन्धनात् ॐ नमो नारायण इति मन्त्रोपासकः वैकुण्ठभुवनलोकम् गमिष्यति तदिदम् परम् पुण्डरीकम् विज्ञानघनम् तस्माद्दिदावन्मात्रम् ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतस्तमेकम् नारायणम् कारणरूपमकारपरब्रह्म एतदथर्वशिरो यो धीते प्रातरदीयानो रात्रिकृतम् पापम् नाशयते सायमधीयानो दिवसकृतम् पापम् नाशयते माद्यन्दिनमादित्याभिमुखो धेयान पञ्चपातकोपपातकात् प्रमुच्यते सर्ववेदपारायण पुण्यम् लभते नारायण सायुज्यमवाप्नोति नारायण सायुज्यमवाप्नोति य एवम् वेद इत्युपनिषत् सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधेतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ तेजोसि तत्ते प्रयच्छामि, तेजस्वदस्तु मे मुखम्, तेजस्वच्चिरो अस्तु मे, तेजस्वान्विश्वतः प्रत्यङ्, तेजसा सम्पिबृद्धि मा, ओजोऽसि तत्ते प्रयच्छामि, ओजस्वदस्तु मे मुखम्, ओजस्वच्चिरो अस्तु मे, ओजस्वान्विश्वतः प्रत्यङ्, ओजसा सम्पिबृद्धि मा, पयोऽसि तत्ते प्रयच्छामि, पयस्वदस्तु मे मुखम्, पयस्वच्छिरो अस्तु मे, पयस्वान्विश्वतः प्रत्यङ्, पयसा सम्पिबृद्धि मा, आयुरसि तत्ते प्रयच्छामि, आयुष्मदस्तु मे मुखम्, आयुष्मच्छिरो अस्तु मे, आयुष्मान्विश्वतः प्रत्यङ्, आयुषा सम्पिबृद्धि मा, इममग्न आयुषे वर्चसे कृधे, प्रियगुं हेतो वरुण सोमराजन्, माते वा स्म अदिते शर्म यच्छ, विश्वे देवा जरदस्थिर्यथा सत्, आयुरसि विश्वायुरसि सर्वायुरसि सर्वमायुरसि, यतो वाचो मनोजवाः यतः क्षरन्ति सिन्धवः, तासां त्वा सर्वासागुं रुचा, अभिषिञ्चामि वर्चसा, समुद्र इवासि गम्भणा, सोम इवास्य दाव्यः, अग्निरिव विश्वतः प्रत्यङ्, सूर्य इव ज्योतिषा विभोः, अपाम्यो द्रवणे रसः, तमहमस्मामुष्यायणाय, तेजसे ब्रह्मवर्चसाय गृह्णामि, अवाम्य ऊर्मौ रसः, तमहमस्मामुष्यायणाय, ओजसे वीर्याय गृह्णामि, अवाम्यो मध्यतो रसः, तमहमस्मामुष्यायणाय, पुष्टये प्रजननाय गृह्णामि, अवाम्यो यज्ञियो रसः, तमहमस्मामुष्यायणाय, आयुषे दीर्घायुत्वाय गृह्णामि। ॐ शान्ति शान्ति शान्तिः। ॐ गणानां त्वा त्वा गणानां गणानां त्वा गणपतिं गणपतिं त्वा गणानां गणानां त्वा गणपतिं त्वा गणपतिं गणपतिं त्वा त्वा गणपतिगुं हवामहे हवामहे गणपतिं त्वा त्वा गणपतिगुं हवामहे गणपतिगुं हवामहे हवामहे गणपतिं गणपतिगुं हवामहे कविं कविगुं हवामहे गणपतिं गणपतिगुं हवामहे कविं गणपतिमिति गणपतिं हवामहे कविं कविगुं हवामहे हवामहे कविं कवीनां कवीनां कविगुं हवामहे हवामहे कविं कवीनां कविं कवीनां कवीनां कविं कविं कवीनामुपमश्रवस्तममुपमश्रवस्तमं कवीनां कविं कविं कवीनामुपमश्रवस्तमम् कवीनामुपमश्रवस्तममुपमश्रवस्तमम् कवीनाम् कवीनामुपमश्रवस्तमम् उपमश्रवस्तममित्युपमश्रवः तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणाम् ज्येष्ठराजम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणो ब्रह्मणो ब्रह्मणाम् ज्येष्ठराजम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणः ज्येष्ठराजमिति ज्येष्ठा राजम् ब्रह्मणाम् ब्रह्मणो ब्रह्मणो ब्रह्मणाम् ब्रह्मणाम् ब्रह्मणस्पते पते ब्रह्मणो ब्रह्मणाम् ब्रह्मणाम् ब्रह्मणस्पते ब्रह्मणस्पते पते ब्रह्मणो ब्रह्मणस्पत आपते ब्रह्मणो ब्रह्मणस्पत आ पत आपते पत आनो न आपते पत आनः आनो न आन शृण्वन् शृण्वन्नान शृण्वन् न शृण्वन् शृण्वन्नो न शृण्वन् नोतिभिरोतिभिः शृण्वन्नो न शृण्वन्नोतिभिः शृण्वन्नोतिभिरोतिभिः शृण्वन् शृण्वन् नोतिभिः सीदसि दोतिभिः शृण्वन् शृण्वन्नोतिभिः सीद ऊतिभिः सीदसि धोतिभिरूतिभिः सीद सादनगुम् सादनगुम् सीधोतिभिरूतिभिः सीद सादनम् ऊतिभिरित्युति भिः सीद सादनगुम् सादनगुम् सीद सीद सादनम् सादनमिति सादनम् प्रणो न प्रणो देवी देवी न प्रणो देवी नो देवी देवी नो नो देवी सरस्वती सरस्वती देवी नो नो देवी सरस्वती देवी सरस्वती सरस्वती देवी देवी सरस्वती वाजेभिर्वाजेभिः सरस्वती देवी देवी सरस्वती वाजेभिः सरस्वती वाजेभिर्वाजेभिः सरस्वती सरस्वती वाजेभिर्वाजिनीवती वाजिनीवती वाजेभिः सरस्वती सरस्वती वाजेभिर्वाजिनीवती वाजेभिर्वाजिनीवती वाजिनीवती वाजेभिर्वाजेभिर्वाजिनीवती वाजिनीवतीति वाजिनी वती धीनाम वित्रिय वित्रिय धीनाम् धीनाम वित्रिय वत्व वत्व वित्रिय धीनाम् धीनाम वित्रियवतु अवित्रिय वत्व वत्व वित्रिय वित्रियवतु अवित्रियवतु ॐ शान्ति शान्ति शान्तिः ॐ तत्सवितुः सवितुस्तत्तत्सवितुर्वरेण्यम् वरेण्यगुम् सवितुः सवितत्सवितुर्वरेण्यम् सवितुर्वरेण्यम् वरेण्यगुम् सवितुः सवितुर्वरेण्यम् वर्गो वर्गो वरेण्यगुम् सवितुः सवितुर्वरेण्यम् भर्गः वरेण्यम् भर्गो भर्गो वरेण्यम् वरेण्यम् भर्गो देवस्य देवस्य भर्गो वरेण्यम् वरेण्यम् भर्गो देवस्य भर्गो देवस्य देवस्य भर्गो भर्गो देवस्य धीमहि धीमहि देवस्य भर्गो भर्गो देवस्य धीमहि देवस्य धीमहि धीमहि देवस्य देवस्य धीमहि धीमहीति धीमहि धियो यो यो धियो धियो यो नो नो यो धियो धियो यो नः यो नो नो यो यो नः प्रचोदयात् प्रचोदयात् नो यो यो नः प्रचोदयात् न प्रचोदयात् प्रचोदयात् नो न प्रचोदयात् प्रचोदयादिति प्रचोदयात् ॐ शान्ति शान्ति शान्तिः ॐ धाता पुरस्ताद्यमुदा जहार चक्र प्रविद्वान् प्रदिशश्च दस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमानित्यम् विश्वम् नारायणगुम् हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायण परो ज्योतिरात्मा नारायण परः नारायण परम् ब्रह्म तत्त्वम् नारायण परः नारायण परो ध्याता ध्यानम् नारायण परः यच्च किञ्चिज्जगत् सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रे तम् विश्वशम्भुवम् पद्मकोश प्रतिकाशगम् हृदयम् चाप्यधोमुखम् अधो निश्चावितस्यान्ते नाभ्यामुपरितिष्ठति ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत् सन्ततगुम् शिलाभिस्तुलम् वत्याकोशसन्निभम् तस्यान्ते सुशिरगुम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः सोऽग्रबुग्विभजम् तिष्ठन्नाहारमजरः कविः तिर्यगोर्ध्वमधशायीरश्मयस्तस्य सन्तता सन्तापयति स्वम् देहमापादतलमस्तकः तस्य मध्ये वह्निशिका अणीयो द्वाव्यवस्थितः नीलतो यदमध्यस्था विद्युल्लेखे बभास्वरा नीवारशोकवत्तन्वी पीताभास्वत्यनुपमा तस्या शिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्मः स शिवः स हरिः सेन्द्रः सोऽक्षरः परमस्वराड् हृदगम् सत्यम् परम् ब्रह्म पुरुषम् कृष्ण पिङ्गलम् ओर्ध्वरेकम् विरूपाक्षम् विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् ॐ शान्ति शान्ति शान्तिः ईशानः सर्वविद्यानाम् ईश्वरः सर्वभूतानाम् ब्रह्माधिपते ब्रह्मणोऽधिपते ब्रह्मा शिवो मे अस्तु सदा शिवो तद्विश्वोत्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवे वचक्षुरातदम् तद्विप्रासो विपन्यवो जाग्रवागुंसस्वमिन्दते विष्णोर्यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् हंसहंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शांतिः।